इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य रांचीनगरात् दृश्यांकन माध्यमेन षट् वन्दे भारत रेलयानानि प्रारब्धानि। सममेव झारखण्डे षष्ट्युत्तर षट्शत कोटि रूप्यकाधिकानां रेल परियोजनानां अपि लोकार्पणं शिलान्यासं च प्रधानमन्त्रिणा कृतम्। दिल्ल्याः मुख्यमन्त्री अरविन्द केजरीवालः दिनद्वये मुख्यमन्त्री पदत्यागस्य घोषणाम् अकरोत्। मेरठनगरे भवनध्वंसे मृतकानां संख्या समेध्य 10 संवृत्ता, ततः 5 जनाः सुरक्षिताः निष्कासिताः। राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च जनेभ्यः ओणम् पर्वणः शुभकामनाः प्रदत्तवन्तः। अपि च ऋतुविज्ञानविभागेन पश्चिमबंगाले गंगायाः तटीयक्षेत्रेषु ओडिशायां झारखण्डे च अद्य प्रचण्ड वर्षा जलप्लावः च सम्भाव्यते। अथ वार्ताः विस्तरेण प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य रांची विमानपत्तनात् दृश्यांकन माध्यमेन टाटानगर पटनां च समेत्य षट् वन्दे भारत रेलयानानि हरित ध्वज प्रदर्शन पुरस्सरं प्रारब्धानि। प्रधानमन्त्रिणा झारखण्डे षष्ट्युत्तर षट्कोटि शतकोटि रूप्यकाधिकानां रेल परियोजनानाम् अपि लोकार्पणं शिलान्यासं च कृतम्। पूर्वम् एतानि रेलयानानि जमशेदपुरात् प्रस्थानस्य कार्यक्रमः निर्धारितः आसीत्, परं प्रचुरवर्षाकारणात् प्रधानमन्त्री जमशेदपुरं नैव प्राप्तवान्। तेन रांचीनगरात् एव वीडियो कॉन्फ्रेंसिंग इति दृश्यांकनमाध्यमेन रेलयानानि प्रारब्धानि। इतः प्राक् श्रीमोदी अद्य प्रातः जमशेदपुरं गन्तुं रांची विमानपत्तनम् उपगतम्, परं प्रतिकूल प्राविड कारणात् तदीयः उदग्रविमानः नैव प्रस्थितम्। प्रधानमन्त्री दृश्यांकनमाध्यमेन जनसभां सम्बोधयन् अवोचत् यत् वन्दे भारत रेलयानानां सञ्चालनेन झारखण्डं प्रतिवेशि राज्यानि च समेत्य देशस्य पूर्वीय क्षेत्रेष् आर्थिक सांस्कृतिक गतिविधिष् तीव्रता आगमिष्यति। श्रीमोदिना प्रोक्तं यत् एतेभ्यः रेलयानेभ्यः पर्यटनोद्योगम् एधिष्यते, आजीविकावसरेष् च वृद्धिः भविष्यति। अमुना उक्तं यत् केन्द्रं झारखण्डस्य चतुर्दिक् विकासाय प्रतिबद्धम् अस्ति।
अब देश की प्राथमिकता देश का आदिवासी, अब देश की प्राथमिकता देश का दलित वंचित पिछड़ा समाज है, अब देश की प्राथमिकता महिलाएं हैं, युवा है, किसान है। पूर्वी भारत में रेल कनेक्टिविटी के विस्तार से इस पूरे क्षेत्र की अर्थव्यवस्था को मजबूती मिलेगी। इन ट्रेनों से कारोबारियों को, छात्रों को लाभ होगा, इससे यहां आर्थिक और सांस्कृतिक गतिविधियां भी तेज होगी।
अत्रांतरे प्रधानमन्त्री मोदी पीएम ग्रामीणावास योजनायाः लाभार्थिभ्यः प्रथमं देयमूल्यम् अपि अयच्छत्। अस्यां योजनायां 32 कोटि रूप्यकाणि लाभार्थिनां बैंकलेखास् डिजिटल माध्यमेन प्रेषितानि। एतदतिरिच्य 32 सहस्र गृहाणां स्वीकृतिपत्राणि वितरितानि। श्रीमोदी अवोचत् यत् आगामि 5 वर्षेष् 2 कोटि अतिरिक्त गृहाणां निर्माणं करिष्यते। तेनोक्तं यत् पीएम आवास योजनया सम्बद्ध क्षेत्रेष् गतिविधयः एधिष्यन्ते, आजीविकावसरेष् अपि वृद्धिः भविष्यति। उपराष्ट्रपतिना जगदीप धनखडेन अद्य मुम्बय्याम् एकस्मिन् कार्यक्रमे महाराष्ट्रे 34,000 औद्योगिक प्रशिक्षण संस्थानानां व्यावसायिक प्रशिक्षण केन्द्रेष् संविधान मन्दिराणाम् उद्घाटनं कृतम्। अत्रावसरे श्रीधनखडः अवोचत् यत् संविधानं लोकतन्त्रस्य आत्मा वर्तते, संसद् च अस्य संरक्षिका अस्ति। तेनोक्तं यत् संविधानं पठितुम् अवगन्तुं सम्मानाय च वर्तते। उपराष्ट्रपतिः अध्यार्थयत् राज्यस्य सर्वैः अंगैः लोकतान्त्रिकमूल्यानि संवैधानिक आदर्शान् विकसितुम् एकीभूय कार्याचरणम् आवश्यकम्। अत्रावसरे महाराष्ट्रस्य राज्यपालः सीपी राधाकृष्णन् अवोचत् यत् भारतीय संविधानस्य कारणेन अस्माकं राष्ट्रं जगतः जीवन्तं लोकतन्त्रम् अस्ति। केन्द्रीय गृहमन्त्रिणा अमितशाहेन अद्य अभियन्ता दिवसस्य अवसरे सर्वेभ्यः अभियन्तृभ्यः वर्धापनानि प्रदत्तानि। सामाजिक संचारपटले श्रीशाहेन उक्तं यत् अभियन्तारो देशस्य विकासे नवाचारे प्रगतौ च मुख्यभूमिकां निभालयन्ति। ते स्वस्य महत्वपूर्ण योगदानेन देशस्य भविष्यं निर्मान्ति। श्री अमितशाहः महान् अभियन्त्रे भारतरत्न सम्मानिताय सर एम विश्वेसरैया इत्यस्मै श्रद्धाञ्जलिम् अर्पयन् अवोचत् यत् तदीयं बहुमूल्यं रिक्थं भारतस्य भविष्यनिर्माणम् अभियन्त्रीन् प्रेरयिष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। दिल्ल्याः मुख्यमन्त्री अरविन्द केजरीवालः घोषणाम् अकरोत् यदसौ दिनद्वये मुख्यमन्त्रिपदात् त्यागपत्रं दास्यति। उक्तं च यत् आगामि दिनद्वये भावि मुख्यमन्त्रिणः निर्णयं कर्तुम् आपदलस्य विधायकानाम् उपवेशनं भविष्यति। दिल्ल्यां दलस्य कार्यकर्तृन् सम्बोधयन् केजरीवालः अवोचत् यत् यावज्जनाः निर्णयं नैव करिष्यन्ति तावत् सः मुख्यमन्त्रिपदं नैव स्वीकरिष्यति। सर्वोच्चन्यायालयेन दिल्ली आबकारी नीति प्रकरणे केजरीवालाय शुक्रवासरे प्रतिभूतिः प्रदत्ता। अत्रान्तरे भाजपादलेन प्रोक्तं यत् अरविन्द केजरीवालस्य पदत्यागः तस्य जनेषु स्वीकार्यतायाः पदक्षेपो वर्तते। केरले अद्य ओणम् पर्वणः पवित्रदिवसः तिरुओणम् आयोज्यते। इदं हि राज्यस्य बृहत्तमं सांस्कृतं पर्व विद्यते यत् हि केरलवासिनः हर्षोल्लासेन परिपालयन्ति। अत्रावसरे राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री च जनेभ्यः शुभकामनाः प्रदत्तवन्तः। निजसन्देशे राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् इदं पर्व केरलस्य सांस्कृतिक रिक्थस्य परम्परायाश्च आदर्शस्वरूपः वर्तते। उपराष्ट्रपतिः जगदीप धनखडः अवोचत् यत् ओणम् पर्व परम्परा माध्यमेन समुदायान् एकस्मिन् सूत्रे बध्नाति। प्रधानमन्त्रिणा नरेन्द्रमोदिना च अस्मिन् अवसरे जनानां जीवने शान्तेः समृद्धेः वैभवस्य च कामना कृता। उत्तरप्रदेशस्य मेरठनगरे भवनध्वंसे मृतकानां संख्या समेध्य 10 संवृत्ता। नगरस्य जाकिर कॉलोनी इत्यत्र गतदिने त्रितल भवनं ध्वंसितम्। साहाय्योद्धारकार्यं च अद्य प्रातः पूर्णम् अभवत्। भग्नावशेषाः पूर्णतया अपसारिताः। ततः 5 जनाः सुरक्षिताः निष्कासिताः। मेरठस्य जनपदाधिकारी दीपक मीणा प्रत्यपादयत् यत् घटनायाः समये तस्मिन् भवने 15 जनाः आसन्। राष्ट्रियापत्मोचनबलं राज्यापत्मोचनबलं च समेत्य साहाय्योद्धारबलानि भग्नावशेषम् अपाकर्तुं नियोजितानि आसन्। महाराष्ट्रस्य धुले जनपदे एकस्यां पथदुर्घटनायां 3 महिलाः समेत्य 5 जनाः मृत्युमुपगताः, 4 जनाश्च व्रणिताः। इयं दुर्घटना वाहनद्वयस्य परस्परं संघट्टेन अभवत्। तत्र व्रणितानाम् उपचारः धुले स्थिते चिकित्सालये विधीयते। घटनायाः अन्वीक्षणं च अनवर्तं क्रियते। भारतीय ऋतुविज्ञान विभागेन अद्य पश्चिम बंगाले गंगायाः तटीय क्षेत्रेषु ओडिशायां झारखण्डयोः च अतिवृष्टेः अनुमानं कृतम्। ऋतुविज्ञान विभागेन छत्तीसगढ़े पूर्वीय मध्यप्रदेशे च श्वः यावत् अतिवृष्टेः संभावना प्रकटिता। अत्रान्तरे ऋतुविज्ञान विभागेन अहोरात्रं यावत् सिक्किम बिहार नागालैण्ड मणिपुर मिजोरम त्रिपुरा असम मेघालय चेति राज्येषु अतिवृष्टिः अनुमानिता। सममेव दिल्ली एनसीआर क्षेत्रे वात्या सह वर्षायाः संभावना अपि ऋतुविज्ञान विभागेन सबलं प्रकटिता। इति वार्ताः।